अथ द्वितीयोऽध्यायः
अथ द्वितीयोऽध्यायः
साङ्ख्ययोगः
साङ्ख्ययोगः
एषा ते विहिता साङ्ख्ये
एषा ते विहिता साङ्ख्ये
बुद्धिर्योगे त्विमां शृणु
बुद्धिर्योगे त्विमां शृणु
बुद्ध्या युक्तो यया पार्थ
बुद्ध्या युक्तो यया पार्थ
कर्मबन्धं प्रहास्यसि
कर्मबन्धं प्रहास्यसि
नेहाभिक्रमनाशोऽस्ति
नेहाभिक्रमनाशोऽस्ति
प्रत्यवायो न विद्यते
प्रत्यवायो न विद्यते
स्वल्पमप्यस्य धर्मस्य
स्वल्पमप्यस्य धर्मस्य
त्रायते महतो भयात्
त्रायते महतो भयात्
व्यवसायात्मिका बुद्धिः
व्यवसायात्मिका बुद्धिः
एकेह कुरु नन्दन
एकेह कुरु नन्दन
बहुशाखाह्यनन्ताश्च
बहुशाखाह्यनन्ताश्च
बुद्धयो व्यवसायिनाम्
बुद्धयो व्यवसायिनाम्
यामि माम् पुष्पिताम् वाचम्
यामि माम् पुष्पिताम् वाचम्
प्रवदन्त्यविपश्चितः
प्रवदन्त्यविपश्चितः
वेदवादरताः पार्थ
वेदवादरताः पार्थ
नान्यदस्तीति वादिनः
नान्यदस्तीति वादिनः
कामात्मानः स्वर्गपराः
कामात्मानः स्वर्गपराः
जन्म कर्म फलप्रदाम्
जन्म कर्म फलप्रदाम्
क्रियाविशेष बहुलाम्
क्रियाविशेष बहुलाम्
भोगैश्वर्यगतिम् प्रति
भोगैश्वर्यगतिम् प्रति
भोगैश्वर्यप्रसक्तानाम्
भोगैश्वर्यप्रसक्तानाम्
तयापहृतचेतसाम्
तयापहृतचेतसाम्
व्यवसायात्मिका बुद्धिः
व्यवसायात्मिका बुद्धिः
समाधौ न विधीयते
समाधौ न विधीयते
त्रैगुण्यविषया वेदाः
त्रैगुण्यविषया वेदाः
निस्त्रैगुण्यो भवार्जुन
निस्त्रैगुण्यो भवार्जुन
निर्द्वन्द्वो नित्यसत्त्वस्थः
निर्द्वन्द्वो नित्यसत्त्वस्थः
निर्योगक्षेम आत्मवान्
निर्योगक्षेम आत्मवान्
यावानर्थ उदपाने
यावानर्थ उदपाने
सर्वतः सम्प्लुतोदके
सर्वतः सम्प्लुतोदके
तावान् सर्वेषु वेदेषु
तावान् सर्वेषु वेदेषु
ब्राह्मणस्य विजानतः
ब्राह्मणस्य विजानतः
कर्मण्येवाधिकारस्ते
कर्मण्येवाधिकारस्ते
मा फलेषु कदाचन
मा फलेषु कदाचन
मा कर्म फलहेतुर्भूः
मा कर्म फलहेतुर्भूः
मा ते सङ्गोऽस्त्वकर्मणि
मा ते सङ्गोऽस्त्वकर्मणि
योगस्थः कुरु कर्माणि
यो योगस्थः कुरु कर्माणि
संगं त्यक्त्वा धनञ्जय सिद्ध्य सिद्ध्यो समो भूत्वा समत्वं योग उच्यते दूरेण ह्यवरं कर्म बुद्धियोगाद् धनञ्जय बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः बुद्धियुक्तो जहातीह उभे सुकृत दुष्कृते तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् यदा ते मोहकलिलम् बुद्धिर्व्यतितरिष्यति तदा गन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च श्रुतिभिप्रतिपन्नाते यदा स्थास्यति निश्चला समाधावचला बुद्धिः तदा योगमवाप्स्यसि अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् श्रीभगवानुवाच प्रजहाति यदा कामान् सर्वान् पार्थमनोगतान् आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते दुःखेष्वनुद्विग्नमनाः सुखेषु विगतः स्पृहः वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते यः सर्वत्रानभिस्नेहः तत्तत्प्राप्य शुभाशुभम् नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता यदा संहरते चायम् कूर्मोऽङ्गानीव सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता विषया विनिवर्तन्ते निराहारस्य देहिनः
रसवर्ज्यं रसोऽप्यस्य
परं दृष्ट्वा निवर्तते यततो ह्यपि कौन्तेय
पुरुषस्य विपश्चितः
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः
तानि सर्वाणि संयम्य
युक्त आसीत मत्परः वशे हि यस्येन्द्रियाणि
तस्य प्रज्ञा प्रतिष्ठिता
ध्यायतो विषयान् पुंसः संगस्तेषूपजायते संगात् संजायते कामः
कामात् क्रोधोऽभिजायते
क्रोधाद्भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशाद्बुद्धिनाशः
बुद्धिनाशात् प्रणश्यति
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् आत्मवश्यैर्विधेयात्मा
प्रसादमधिगच्छति
प्रसादे सर्वदुःखानां हानिरस्योपजायते
प्रसन्नचेतसो ह्याशु
बुद्धिः पर्यवतिष्ठते नास्ति बुद्धिरयुक्तस्य
न चायुक्तस्य भावना न चाभावयतः शान्तिः
अशान्तस्य कुतः सुखम् इन्द्रियाणां हि चरताम्
यन्मनोनुविधीयते
तदस्य हरति प्रज्ञाम्
वायुर्नावमिवाम्भसि
तस्माद्यस्य महाबाहो
निगृहीतानि सर्वशः
इन्द्रियाणीन्द्रियार्थेभ्यः
तस्य प्रज्ञा प्रतिष्ठिता
यानिशा सर्वभूतानाम्
तस्यां जागर्ति संयमी
यस्यां जाग्रति भूतानि
सा निशा पश्यतो मुनेः
आपूर्यमाणमचलप्रतिष्ठम्
समुद्रमापः प्रविशन्ति यद्वत्
तद्वत्कामायम् प्रविशन्ति सर्वे
सशान्तिमाप्नोति न कामकामी
विहाय कामान्यः सर्वान्
पुमांश्चरति निःस्पृहः
निर्ममो निरहङ्कारः
सशान्तिमधिगच्छति
एषा ब्राह्मी स्थितिः पार्थ
नैनां प्राप्य विमुह्यति
स्थित्वा स्यामन्तकालेऽपि
ब्रह्मनिर्वाणमृच्छति
ओम् तत्सत्
इति
श्रीमद्भगवद्गीतासु
उपनिषत्सु
ब्रह्मविद्यायाम्
योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
साङ्ख्ययोगो नाम
द्वितीयोऽध्यायः